एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति देशे स्थिर शान्तेः सामाजिक न्यायस्य च प्रतिष्ठापनेन समतामूलक समाजस्य निर्माणेन च विकास समृद्ध्योः उद्देश्यं प्राप्तुं शक्यते। नेपाल सर्वकारस्य गतार्थिक वर्षस्य वार्षिक प्रतिवेदन प्रस्तुतेः कार्यक्रमं पूर्वेद्युः सम्बोधयन् राष्ट्रपतिः पौडेलः उपलब्ध साधन स्रोतसां परिचालनं विधाय राज्यस्य निर्देशक सिद्धान्तस्य नीति दायित्वानां च प्रभावकारी क्रियान्वयन एव देशे स्थिर शान्तेः सुशासनस्य सामाजिक न्यायस्य च स्थापनं समतामूलक समाजस्य निर्माणं विकास समृद्धिः सांविधानिकम् उद्देश्यं च प्राप्तुं शक्यन्ते इति उदयदयत्। तदवसरे प्रधानमन्त्रिणा केपी शर्मा ओलिना राष्ट्रपतेः समक्षं नेपाल सर्वकारस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतम् आसीत्। प्रधानमन्त्री केपी शर्मा ओली भाषते कृषेः आधुनिकीकरणेन उत्पादनम् उत्पादकत्वं च वर्धयितुं शक्यते। राष्ट्रिय युवसंघ नेपालेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली देशः विकासे अग्रेसरोऽस्तीत्यतः उद्यमशीलतायाः माध्यमेन वृत्त्युपार्जनानाम् अवसराः सृज्यन्ते इति प्रावोचत्। प्रधानमन्त्री ओली यूनः स्वक्षेत्रे केन्द्रीभूय कार्यं कर्तुम् अनुरुन्धानः सर्वकारेण आगामिषु नीतिकार्यक्रमेषु यूनां समस्यानां सम्बोधनं विधास्यते इति प्रतिबद्धताम् अभिव्यनक्। बांके जनपदस्य बेतहनी स्थाने ट्यांकरयानस्य प्रहारेण बालको मृतौ स्तः। डुडुवा ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य बेतहनी चोकस्थाने विद्यालयात् गृहं प्रत्यावर्तन समये भ्रातरौ ट्रैंकर यानस्य प्रहारेण घटनास्थले एव मृतौ इति प्रहरेण ज्ञापितं वर्तते। मृतकौ स्थानीयौ विशाल कुमार गोडिया शिव कुमार गोडिया च वर्तेते इति बांके जनपद प्रहरी कार्यालयस्य प्रहरी प्रवक्ता दीपक पातली असूचयत्। घटनायाः विरोधे प्रदर्शनं विधाय स्थानीयैः ट्यांकर यानम् अग्निसात् कृतमस्ति इति प्रहरिणा ज्ञापितं वर्तते। राष्ट्रसभायाः ह्यस्तनोपवेशेन प्रतिनिधिसभातः ससन्देशं प्राप्तानि विभिन्नानि विधेयकानि आधृत्य विचार्यताम् इति निगद्य प्रस्तुताः प्रस्तावाः स्वीकृताः सन्ति। विस्थापन विधेयकत्वेन आनीतान् सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् कतिचित् नेपालादि नियमान् संशोधयितुं निर्मितम् एतत् विक्रमवर्षीयं विधेयकम्। सहकारी सम्बद्धान् कतिचित् नेपालादि नियमान् संशोधयितुं निर्मितम् एतत् विक्रमवर्षीयं विधेयकम्। आर्थिक कार्यविधि वित्तीयोत्तरदायित्व सम्बद्धम् एतत् विक्रमवर्षीयं प्रथम संशोधन विधेयकम्। नैजीकरण सम्बद्धम् एतत् विक्रमवर्षीयं प्रथम संशोधन विधेयकम्। आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धं कतिचित् नेपालादि नियमान् संशोधयितुं निर्मितम् एतत् विक्रमवर्षीयं विधेयकं च आधृत्य विचार्यताम् इति निगद्य प्रस्तुताः प्रस्तावाः स्वीकृताः सन्ति। विधेयकानां विमर्शनस्य क्रमे उत्थापितान् प्रश्नान् उत्तरयन् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः सर्वकारस्य स्वामित्वे विद्यमानानां सार्वजनिक प्रतिष्ठानानां व्यवस्थापनाय नीतिगतस्य सुधारस्य आवश्यकता अस्ति इति अगदत्। उपवेशे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ जनतायाः अपेक्षायाः अनुसारेण सर्वकारस्य कार्यं द्रुतं सरलञ्च विधातुं प्रचलितानां विधीनां संशोधनं विधीयमानमस्ति इति स्पष्टीकृतवान्। एवमेव सांसदानां प्रश्नान् उत्तरयन् भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री बलराम अधिकारी जनतायाः आवश्यकतां सम्बोधयितुं सहकारी क्षेत्रस्य समस्यानां समाधानाय च सर्वकारः तत्परोऽस्ति इति अगदत्। तत्पूर्वं सांसदः हृदयरोगस्य मधुमेहस्य अन्येषाम् असंक्रमणीय रोगाणां च प्रशमनाय उपयोगिनाम् औषधगुणयुक्तानां पोषणयुक्तानां च खाद्यानाम् आपणेषु याचना वर्धमानास्तीत्यतः एतेषां वनौषधीनां खाद्यान्नानां च विकासाय आगामिनि आयव्ययके नीतिकार्यक्रमेषु च बलं दातुं सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः अपरोपवेशः चैत्रमासस्य त्रयोदशे दिवसे दिवासपादैकवादने वस्ता। नेपाली कांग्रेस दलेन सार्वभौम नेपाली जनतया निर्वाचितया संविधानसभया निर्मितस्य संविधानस्य पक्षे प्रतिबद्धताम् अभिव्यज्य दृढतापूर्वकं संविधानस्य अनुसारेण अग्रे वर्धितुं निर्णीतं वर्तते। ह्य उपविष्टेन दलस्य कार्यसम्पादन समितेः उपवेशेन संविधानस्य माध्यमेन जनतायाः आवश्यकतायाः समस्यानां महत्वाकांक्षायाश्च सम्बोधनं कर्तुं शक्यते इति निष्कर्षः प्रकाशितोऽस्ति इति दलप्रवक्ता डॉ प्रकाश शरण महत असूचयत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा गदति नेपाले राजतन्त्रस्य प्रत्यावर्तनस्य सम्भावना नास्ति। नेपाली कांग्रेस दलस्य बागमती प्रदेश समितेः प्रशिक्षण विभागेन ह्य ललितपुरे आयोजिते कार्यक्रमे कतिपयेभ्य दिनेभ्य राजावादिनां जायमानान् गतिविधिन् लक्ष्यीकृत्य सभापतिः देउवा गणतन्त्रस्य पक्षे एकीभूय प्रवर्तनाय नेतृन् कार्यकर्तृञ्च निरदिशत्। सभापतिः देउवा राजनीत्यर्थं दलं निर्माय तेनैव माध्यमेन अग्रे वर्धितुं भूतपूर्वं राजानं परामृष्टवान्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः भाषते नागरिकाणां योगदाने आधारितायाः स्वास्थ्य सुरक्षण कोष प्रणाल्याः विकासस्य विकल्पो नास्ति। दाङ जनपदस्य नेपाली कांग्रेस दलेन ह्य घोराही नगरे आयोजिते कार्यक्रमे मन्त्री पौडेलः स्वास्थ्य सुरक्षण कोषं प्रभावपूर्णं विधाय जनेभ्य गुणस्तरीयां सेवां प्रदातुं योगदाने आधारितायाः स्वास्थ्य सुरक्षण प्रणाल्याः आवश्यकता अस्ति इति अवदत्। सम्प्रति केवलं सर्वकारेण एव निवेशं विधाय जनतायै स्वास्थ्य सुरक्षण सेवा प्रदानस्य अवस्था नास्तीति चर्चयन् मन्त्री पौडेलः निजक्षेत्रस्यापि सहयोगस्य आवश्यकता अस्तीति समस्पष्टयत्। नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः देशस्य विकास समृद्ध्योर्मार्गे अग्रे नयनस्य अभियाने संचार जगता प्रवर्तनीयमिति बलं ददाति। प्रेस चौतारी नेपालस्य पूर्वेद्युः विराटनगरे प्रारब्धस्य दशमस्य राष्ट्रिय महाधिवेशनस्य उद्घाटनं विदधानः महासचिवः पोखरेलः संचार जगता प्रजातन्त्रस्य स्थापनायाः पश्चात् देशे सम्भूतस्य परिवर्तनस्य विषये जनतायां सत्य तथ्य समाचाराणां सम्प्रेषणं विधातव्यमिति बलं दत्तवान्। दक्षिणैशैक क्षेत्रस्य कृषकै उत्पादनानां मूल्यस्य अप्राप्तेः समस्या सोढभ्या अस्तीति निगद्य अस्याः समस्यायाः समाधानाय बलं प्रदत्तमस्ति। दक्षिणैशैक कृषक महासंघेन सम्प्रत्येव काष्ठमण्डपे आयोजितस्य सम्मेलनस्य घोषणापत्रं सार्वजनिकर्तुं पूर्वेद्युः आयोजिते पत्रकार सम्मेलने कृषकै उत्पादनानां मूल्यस्य अप्राप्तेः कारणेन कोषागारात् गृहीतस्य ऋणस्य प्रत्यावर्तनं कर्तुम् असमर्थतः कारणेन कृषेः वृत्तितः एव पलायनस्य अवस्था अस्तीति उक्तं वर्तते। साम्प्रतिक कृषि प्रणाल्या मृदः स्वास्थ्ये जलवायु प्रणाल्यां च प्रभावः सृष्टोऽस्तीत्यतः वर्तमान कृषि प्रणाल्यां परिवर्तनम् आनेतुं बलं दत्तमिति महासंघस्य अध्यक्षः डॉ प्रेम दंगालः असूचयत्। मधेश प्रदेशस्य मुख्यमन्त्री सतीश कुमार सिंह सर्लाही जनपदस्य लालबन्दी नगरपालिकायाः एकोनविंशतिम् अवैधानिक स्वास्थ्य संस्था पिधातुं निर्दिष्टवान् अस्ति इति समाचारः।